एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। विधि न्याय संसदीय विषय मन्त्री शोभिता गौतमः 67 विधेयकानि प्राथमिकतायाः आधारेण संसदि पञ्जीकारयितुं सर्वकारेण एतेषां विधीनां प्रस्तावानां सूची कार्यतालिका च संघीय संसदि प्रेषितानि सन्तीति सूचयति। प्रतिनिधिसभायाः स्थनोपवेशे समयम् अभियाच्य विधिमन्त्री गौतमः आगामिनः आर्थिकवर्षस्य कृते संघीय संसदि पञ्जीकर्तव्यानि 97 एकोनसप्ततिः संशोधनीयानि च विधेयकानि निश्चितानि सन्तीति अज्ञापयत्। एवमेव प्रतिनिधिसभायाः ह्यस्तनोपवेशेन अन्तर्राष्ट्रिय श्रम संघटनेन सह सम्बद्धाभ्याम् द्वाभ्याम् महासन्धिभ्याम् सह सम्बद्धम् प्रकरणद्वयम् अनुमोदितम् वर्तते। उपवेशे युव श्रम वृत्ति उपार्जन मन्त्रिणा रामजी यादवेन प्रस्तुतम् 30-19 ख्रीष्टवर्षस्य अन्तर्राष्ट्रिय श्रम संघटनस्य बाध्यकारी श्रम महासन्धि 14-2000 विक्रम वर्षस्य 39 प्रकरणम् 47-21 ख्रीष्टवर्षीय श्रम निरीक्षण सम्बद्ध महासन्धे 81 प्रकरणञ्च अनुमोदिते स्तः। प्रतिनिधिसभायाः स्थनोपवेशे राष्ट्रिय मानवाधिकार आयोगेन सहितानां त्रयाणाम् आयोगानां वार्षिक प्रतिवेदनानि प्रस्तुतानि सन्ति। उपवेशे प्रधानमन्त्रिणः बालेन्द्र शाहस्य पक्षतः विधि न्याय संसदीय विषय मन्त्रिणा सुविता गौतम इत्यनया राष्ट्रिय मानवाधिकार आयोगस्य 18 वार्षिकम् प्रतिवेदनम्, राष्ट्रिय सूचना आयोगस्य गतार्थिक वर्षस्य वार्षिकम् प्रतिवेदनम् एवमेव राष्ट्रिय समावेश्य आयोगस्य 81-2000 आर्थिक वर्षस्य वार्षिकम् प्रतिवेदनम् प्रस्तुतमस्ति। प्रतिनिधिसभायाः स्थनोपवेशेन अर्थ सम्बद्धान् कतिपय नेपालाधिनियमान् संशोधयितुम् निरसयितुम् च निर्मितम् एतत् विक्रमवर्ष्यम् विधेयकम् सर्वसम्मत्या स्वीकृतमस्ति। उपवेशे अर्थमन्त्री डॉ सोनी मवागले विधेयकमिदमाधृत्य विचारिताम् उपवेशे अर्थमन्त्रिणा डॉ सोनी मवागले विधेयकेन प्रस्तुतः विधेयकम् आधृत्य विचारिताम् इति निगद्य प्रस्तुतः प्रस्तावः स्वीकृतोऽस्ति। प्रतिनिधिसभायाः स्थनोपवेशे सांसदैः वृत्त्युपार्जनस्य सुरक्षायाः याचनां कृत्वा आन्दोलनरतानाम् आसन्न 50,000 अस्थायी कर्मचारिणां समस्यायाः समाधानस्य, देशे प्रवर्धमानायाः आत्महत्यायाः घटनायाः, स्वास्थ्य सुरक्षण कोषस्य च विषयेष् अन्येष् सामयिक विषयेष् च सर्वकारस्य ध्यानम् आकर्षितमासीत्। प्रतिनिधिसभायाः अपरोपवेशः आगामिनः श्रावण मासस्य 14 दिवसे बृहस्पतिवासरे पूर्वाह्नस्य 11 वस्ता। राष्ट्रियसभायाः स्थनोपवेशे सांसदैः राज्यशक्तिम् दुरुपयुज्य कतिपयानाम् संचारगृहाणाम् नेतृणाम् गृहाणाम् च द्वारेषु जीपयान स्थापनायाः घटनायाः विषयमादाय अनुसन्धानपूर्वकम् दण्डयितुम् सर्वकारस्य ध्यानाकर्षणम् विहितमस्ति। राष्ट्रियसभायाः स्थनोपवेशे नेपाली कांग्रेस दलस्य सांसद कमला पन्त, नेपाली कम्युनिष्ट दलस्य सांसद झक्कु प्रसाद सुवेदी, नेकपा एमाले दलस्य सांसद रोशनी मेचे, जनता समाजवादी दलस्य सांसद महन्त ठाकुर संचार गृहाणाम् अग्रभागेष् यानम् संस्थाप्य सर्वकारेण संचार स्वतन्त्रताया संकोचनम् विधीयमानमस्तीति आरोपयन्। उपवेशे सांसद सामयिक विषयेष् सर्वकारस्य ध्यानाकर्षणम् विहितवन्त। राष्ट्रियसभायाः स्थनोपवेशे अध्यक्ष नारायण प्रसाद दाहाल राष्ट्रपतेः कार्यालयात् प्राप्तम् विधेयक प्रमाणीकरण सम्बद्धम् पत्रम् पठित्वा अश्रावयत्। एवमेव उपवेशे प्रधानमन्त्रिणः बालेन्द्र शाहस्य पक्षतः विधि न्याय संसदीय विषय मन्त्रिणा सुविता गौतम इत्यनया महान्यायाधिवक्तुः कार्यालयस्य गतार्थिक वर्षस्य वार्षिकम् प्रतिवेदनम् सभासमक्षम् प्रस्तुतमस्ति। राष्ट्रियसभायाः अपरोपवेशः श्रावण मासस्य 15 दिवसे दिवा सपादैकवादने वस्ता। प्रधानमन्त्री बालेन्द्र शाह देशस्य पर्यटन प्रवर्धनाय द्रुतगत्यां कार्यम जायमानम् अस्तित्यतः अतिथिगृह व्यवसायिनः चिन्ताम् न कर्तुम् अनुरोणधि। प्रधानमन्त्री मन्त्री परिषद कार्यालय ह्य हान नाम्नः अतिथिगृह संघस्य पदाधिकारीभिस्सह सम्भूते विमर्शने प्रधानमन्त्री शाह नैज क्षेत्रम् सर्वकारेण उच्च प्राथमिकतायाम् स्थापितम् अस्तित्यतः राज्येन सह दृढतापूर्वकम् सहकार्यम् कर्तव्यम् इत्यत्र बलम् प्रादात्। संस्कृति पर्यटन नागरिक उड्डयन मन्त्रिण खड्गराज पौडेलस्य च समुपस्थितौ संस्कृति पर्यटन नागरिक उड्डयन मन्त्रिण खड्गराज पौडेलस्य च समुपस्थितौ सम्भूते विमर्शन कार्यक्रमे हानेति संस्थाया पदाधिकारीभि देशस्य अतिथिगृहाणि आसन्न चत्वारिंशत् लक्षेभ्य पर्यटकेभ्य सेवां दातुं समर्थानि सन्तीति संसूचितमस्ति। नेकपा एमाले दलेन नेपाली कांग्रेस दलस्य नेतृत्वे विद्यमानाय सुदूरपश्चिम प्रदेश सर्वकाराय प्रदत्तम समर्थनम् प्रत्यावर्तितमस्ति। ह्य उपवेशेन नेकपा एमाले दलस्य संसदीय दलस्य उपवेशेन सर्वकाराय प्रदत्तम समर्थनम् प्रत्यावर्तयितुम् निर्णीतमस्ति इति एमाले दलस्य नेता राजेन्द्र सिंह रावल अज्ञापयत्। एतत्पूर्व ह्य एव मुख्यमन्त्रिणा कमल बहादुर शाहेन सर्वकारे एमाले दलस्य पक्षत प्रतिनिधित्वं कुर्वाण भौतिक पूर्वाधार विकास मन्त्री सुरेन्द्र पाल, भूमि व्यवस्था कृषि सहकारी मन्त्री वीरबहादुर थापा, आन्तरिक विषय मन्त्री हीरा सार्की, भौतिक पूर्वाधार विकास राज्य मन्त्री निर्मला साउत च पदमुक्ता विहिता आसन्। मधेस प्रदेश सभया प्रदेश सर्वकारेण प्रस्तुतम् आगामिनः आर्थिक वर्षस्य आयव्ययिकम् सर्वसम्मत्या पारिति कृतमस्ति। उपवेशे सभामुखेन आयव्ययिकस्य पारितीकरणाय प्रस्तावस्य प्रस्तुते अनन्तरम् आगामिनः आर्थिक वर्षस्य कृते आयव्ययिकम् सर्वसम्मत्या पारिति कृतमस्ति। मधेस प्रदेश सर्वकारस्य अर्थमन्त्रिणा युवराज भट्टराई इत्यनेन आगामिनः आर्थिक वर्षस्य कृते एकचत्वारिंशत् अब्जानां त्रयोदश कोटीनां षडशीतिः लक्षाणां च रूप्यकाणां च आयव्ययिकम् प्रदेशसभाया उपवेशे गताषाढमासस्य प्रथमे दिवसे प्रस्तुतमासीत्। जलवायु विज्ञान पूर्वानुमान महाशाखया गतरात्रितः शुक्रवासरं यावत् देशस्य विभिन्नेषु स्थानेषु अत्यधिक वृष्टेः सम्भावना अस्ति इति ज्ञापितं वर्तते। महाशाखायाः अनुसारेण सम्प्रति जलवायुः न्यूनचापीय रेखा पश्चिमायां दिशि सामान्यतो अधिकतया नेपालस्य तराई क्षेत्रस्य समीपे पूर्वस्यां दिशि च अस्तित्यतः कोशी बागवती गण्डकी लुम्बिनी प्रदेशानां पर्वतीय भूभागेषु तराई क्षेत्रस्य कतिपयेषु स्थानेषु च वृष्टेः सम्भावना वर्तते। अद्य स्वश्चाराष्ट्र मेघमाच्छाद्य हिमालयीय क्षेत्राणां कतिपयेषु स्थानेषु मेघगर्जनेन सह मध्यम वृष्टेः हिमपातस्य पर्वतीय भूभागस्य तराई भूभागस्य च कतिपयेषु स्थानेषु अत्यधिक वृष्टेश्च सम्भावना अस्ति इति महाशाखया ज्ञापितं वर्तते। इति समाचारः।